इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका मुदिता वेतालः आदौ मुख्य वार्ताः मालदीवस्य राष्ट्रपतिः मोहम्मद मुइज़्ज़ु इत्यसौ पञ्चदिवसीय भारत यात्रायै अद्य राजधान्यां नवदिल्ल्यां सम्प्राप्ता। मंगलवासरे संजाते जम्मू कश्मीर हरियाणा विधानसभयोः निर्वाचनस्य मतगणनायै सज्जता सजवं प्रचलति। भारतीय वायुसेनायाः द्विनवतितम वर्षस्य उत्सवस्य आरम्भः चेन्नई नगरे जातः। उत्सवस्य आरम्भे द्विसप्ततिः युद्धविमानानां वायुविमानानां च अद्भुत प्रदर्शनम् अभवत्। महाराष्ट्रस्य मुख्यमंत्री एकनाथ शिंदे अद्य चेम्बूर स्थितं अग्नि दुर्घटनास्थलम् उपगतः। प्रत्येकं पीडितानां परिजनेभ्यः 5 लक्ष रूप्यकाणां साहाय्यं च उद्घोषयत्। भारत बांग्लादेशयोः मध्ये 20-प्रतिविंशतिः क्रिकेट श्रृंखलायाः प्रथमा स्पर्धा अद्य ग्वालियर नगरे भविष्यति। अपि च महिलानां 20-प्रतिविंशतिः क्रिकेट चषक स्पर्धा मालिकायाम् अद्य भारत पाकिस्तानयोः स्पर्धा प्रचलति। मालदीवस्य राष्ट्रपतिः मोहम्मद मुइज़्ज़ु इत्यसौ पञ्चदिवसीय भारत यात्रायै अद्य राजधान्यां नवदिल्ल्यां सम्प्राप्ता। विदेशमन्त्री डॉ सुब्रह्मण्यम जयशंकरः मालदीवस्य राष्ट्रपतिना सह मेलनं करिष्यति। श्वः प्रातः राष्ट्रपति भवने राष्ट्रपतेः मुइज़्ज़ु इत्यस्य औपचारिकं स्वागतं भविष्यति। सः प्रधानमन्त्रिणा नरेन्द्रमोदिना सह द्विपक्षीय क्षेत्रीय परस्पर हित सम्बन्धेषु अन्ताराष्ट्रिय विषयेषु च संवादं करिष्यति। उपवेशनस्य अनन्तरं नैकानि सन्धिपत्राणि हस्ताक्षरिष्यन्ते इति सम्भाव्यते। मालदीवस्य राष्ट्रपतेः श्वः सायं राष्ट्रपतिना द्रौपदी मुर्मू वर्यया सह मेलनस्य अपि कार्यक्रमः वर्तते। मंगलवासरे संजाते जम्मू कश्मीर हरियाणा विधानसभयोः निर्वाचनस्य मतगणनायै सज्जता सजवं प्रचलति। सुचारू मतगणनायै हरियाणा जम्मू कश्मीरयोः सर्वेषु मतगणना केन्द्रेषु कठोर सुरक्षा व्यवस्था कृता अस्ति। हरियाणा विधानसभा निर्वाचने प्रायः 67% मतदानं संजातम्। गतदिने राज्यस्य सर्वेषु 90 निर्वाचनक्षेत्रेषु मतदानम् अभवत्। मतदान प्रक्रियायाः शान्तिपूर्ण समाप्तेः अनन्तरं अधुना विभिन्नेषु जनपदेषु सशक्त क्षेत्रेषु त्रिस्तरीय कठिन सुरक्षायाः अन्तर्गतं इलेक्ट्रॉनिक मतदान यन्त्राणि सुरक्षितानि सन्ति। जम्मू कश्मीर राज्ये त्रिषु चरणेषु सितंबर मासस्य 18-25 अथ च अक्टूबर मासस्य प्रथमे दिनांके मतदानं संजातम्। तत्र 64% मतदानं परिलक्षितम्। अनुच्छेद 70-300 इत्यस्य निष्कासनानन्तरं केन्द्र शासित प्रदेशे प्रथमवारं विधानसभा निर्वाचनं सफलतया पूर्णरीत्या च विहितम्। भारतीय वायुसेनायाः द्विनवतितम वर्षस्य उत्सवस्य आरम्भः चेन्नई नगरे जातः। उत्सवस्य आरम्भे द्विसप्ततिः युद्धविमानानां वायुविमानानां च अद्भुत प्रदर्शनम् अभवत्। 21 वर्षाणाम् अनन्तरम् आयोजितं कार्यक्रमं द्रष्टुं मरीना समुद्रतटे लक्षशः प्रेषकाः एकत्रिताः आसन्। भारतीय वायुसेनायाः चेतकः राफेल, डकोटा, हार्वर्ड, एमआईजी, जगुआर च इत्येतानि विमानानि उत्कृष्ट प्रदर्शनानि विहितवन्तः। महाराष्ट्रस्य लातूरे पूर्णमल लाहोटी सर्वकारीय प्रौद्योगिकी महाविद्यालयस्य छात्रावासे गतदिने विषाक्त भोजनेन षष्टिः छात्राः विलासराव देशमुख चिकित्सा महाविद्यालये अथ अन्येषु चिकित्सालयेषु उपचाराय प्रविष्टाः। आरक्षिभिः अन्वीक्षणम् आरब्धं कृतमस्ति। भोजनस्य अंशः परीक्षणाय प्रेषितः। घटनायाः अनन्तरं संसत्सदस्यः डॉ. शिवाजी कालगे अथ च जनपदाधिकारी वर्षा ठाकुरः इत्येताभ्यां चिकित्सालयम् उपेत्य छात्रेभ्यः मेलनं कृतवन्तौ। सममेव स्वास्थ्यस्य स्थितिः च परिज्ञाता। महाराष्ट्रस्य मुख्यमंत्री एकनाथ शिंदे अद्य चेम्बूरस्थितं अग्नि दुर्घटनास्थलम् उपगतः। प्रत्येकं पीडितानां परिजनेभ्यः 5 लक्ष रूप्यकाणां सहायं च उद्घोषयत्। मुख्यमंत्रिणा उक्तं यत् दुर्घटनायां व्रणितेभ्यः प्रशासनं निःशुल्कं उपचारं प्रदास्यति। अवधेयं यत् मुम्बय्यां चेम्बूरस्थले अग्नि दुर्घटनायां बालत्रयं समेत्य एकस्यैव परिवारस्य 7 सदस्याः मृत्युम् उपगताः। एषा दुर्घटना भवनस्य भूतलस्थे विपण्यां विद्युत तारेषु अग्निकारणेन सञ्जाता। मुम्बय्याः आरक्षि उपायुक्तः हेमराजः अवोचत् यत् अग्निना व्रणित जनाः शीघ्रं चिकित्सालयं नीताः, यत् ते मृताः घोषिताः। दुर्घटनायाः अन्वीक्षणं विधीयते। संस्कृतवार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एयर चल दूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। छत्तीसगढ़स्य धमतरी जनपदे जल जागरण महोत्सव महतोत्साहेन आमान्यते। द्विदिवसात्मकं महोत्सवोऽयं गंगरेल सेतोः पार्श्वे रविशंकर शुक्ल जलाशय परिसरे समारब्धः। अस्मिन् अन्ताराष्ट्रिय सम्मेलने यूनिसेफ, जापान, श्रीलंका, अन्ये च विविध देशानां पर्यावरणविदाः सहभागं कुर्वन्ति। हॉकी इंडिया इत्यनेन अद्य मलेशियायां आयोजयिष्यमाणस्य सुल्तान जोहोर कप इत्यस्य 12वें संस्करणे प्रतिभागाय 18-सदस्यीय कनिष्ठवर्गीय पुरुषदलस्य घोषणा कृता। नवनियुक्तः मुख्य प्रशिक्षकः पीआर श्रीजेशः मलेशियायां भारतीय दलं प्रशिक्षयति। सममेव आमीर अली दलस्य नेतृत्वकर्ता अथ रोहितः तदीय सहायकः नियुक्तौ भविष्यतः। भारतम् अस्य मासस्य 19वें दिनांके जापानं विरुध्य स्वीय अभियानस्य आरम्भं करिष्यति। एकं राष्ट्रं एकं निर्वाचनम् इत्यस्य कृते गठितस्य समितेः अध्यक्षः पूर्वराष्ट्रपतिः रामनाथ कोविन्दः उक्तवान् यत् सम्पूर्णे भारते युगपत् निर्वाचनं कृत्वा देशस्य महान् लाभो भविष्यति। गतदिने नवदिल्ल्यां सञ्जाते लाल बहादुर शास्त्री स्मृति व्याख्याने सः अवदत् यत् युगपत् निर्वाचनेन उत्तम शासनम्, नीति स्थिरता, सामाजिक संगतिः, आर्थिक वृद्धिः च भवितुम् अर्हति। इज़राइल देशेन लेबनाने आक्रमणे तीव्रता विधाय बेरूत नगरस्य दक्षिण क्षेत्रे भीषणानि वायु आक्रमणानि कृतानि, येन नगरे भीषण हानिः जाता। महिलानां 20-प्रतिविंशतिः क्रिकेट चषक स्पर्धा मालिकायाम् अद्य भारत पाकिस्तानयोः स्पर्धा प्रचलति। पणकं विजित्य पाकिस्तान दलेन 6-शतं धावनांकानां विजयलक्ष्यं प्रदत्तम् इति वार्ताः।